पिता तनोतु भवताम् इन्दुर्यशो निर्मलम् भूतिम् भूमि सुतः सुधां सुतनयः प्रज्ञां गुरुर्गौरवम् काव्यः कोमलवाग्विलासमतुलम् मन्दोमुदम् सर्वदा राहुर्बाहुबलम् विरोधशमनम् केतुः कुलस्योन्नतिम् श्रीकण्ठो विश्वसृद्देवो वैकुण्ठो गरुडासनः हेरम्भश्च महासेनः कुर्वन्त्वेन चिरायुषम् जिष्णुरग्निर्यमश्चैव कर्पुरो यादसाम् पतिः वायुः कुबेर ईशानः कुर्वन्त्वेन चिरायुषम् वसवोष्टौ तथा दिव्या द्वादशैकादश स्मृताः रुद्रा साध्याश्च सिद्धाश्च कुर्वन्त्वेन चिरायुषम् रविः सोमः कुजः सौम्यो गुरुः शुक्रश्च निस्तथा राहुः केतुर्ग्रहास्त्वेते कुर्वन्त्वेन चिरायुषम् मनवः पितरश्चैव ऋषयो देवमातरः सर्वे देवाः गन्धर्वाः कुर्वन्त्वेन चिरायुषम् श्रीमान् वीरायुष्मान् बलवान् पुष्टिमान् सुष्टिमान् धीमान् धृतिमान् लक्ष्मीवांसं सुप्रतिष्ठो भव सुप्रतिष्ठो भव ब्रह्मवाक्यं सदा नित्यं निघ्नन्ति तव शत्रवः अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः अधनाः सधनाः सन्तु सन्तु सर्वार्थसाधकाः विप्रहस्ताश्च गृह्णीया यज्ञपुष्पफलाक्षतान् चत्वारस्तव वर्धन्ताम् आयुकीर्तिधनम् बलम् सर्वे तु सुखिनः सन्तु सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखमाप्नुयात् काले वर्षभिपर्यन्तः पृथिवी सस्यशालिनी देशोऽयं शोभरहितः सज्जनाः सन्तु निर्भयाः शान्तिरस्तु शिवञ्चास्तु शुभञ्चास्तु धनं तथा वृद्धिरस्तु बुद्धिरस्तु ब्राह्मणानां प्रसादतः देवस्य गृहे मुनयो वसन्ति देवानां कवयः पार्थिवासः देवा इदकले सुमनस्य मानो दिवि देवावसवो दीर्घमायुः